इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः दिव्यानन्द झाः। प्रधानमन्त्री नरेन्द्र मोदी अद्य राष्ट्रिय युव दिवसस्य अवसरे नवदिल्ल्यां भारत मण्डपे पञ्चविंशत्यधिक द्विसहस्रतमाब्दीये विकसित भारत युव नेतृ संवादे त्रिसहस्र युवनेतृभिः सह संवादं करिष्यति। गतवासरे प्रधानमन्त्रिणा नरेन्द्र मोदिना उक्तं यत् विकसित भारत युव नेतृ संवादः देशस्य यूनः राष्ट्रस्य विकासयात्रायां सम्मेलितुम् अद्वितीयः उपक्रमः अस्ति। श्रीमता मोदिना ह्यः युवकार्य क्रीडा राज्यमन्त्रिपदारूढया रक्षा खडसे इत्यनया पञ्चविंशत्यधिक द्विसहस्रतमाब्दीयस्य राष्ट्रिय युव महोत्सवस्य विषये विकसित भारत युव नेतृ संवाद विषये च लिखितः एकः लेखः प्रसारितः। प्रधानमन्त्री अवदत् यत् एषः कार्यक्रमः विकसित भारतस्य दृष्टिं साकारीकर्तुं यूनां मस्तिष्कोर्जां सृजनशीलतां नेतृत्वं च दिशां प्रदातुं प्रकल्पितः अस्ति। विकसित भारत युवनेतृ संवादस्य प्रथमे दिवसे केन्द्रीय युवकार्य क्रीडामन्त्री डॉ मनसुख माण्डविया अवोचत् यत् अयं कार्यक्रमः राजनीतिक सम्पर्कं विना राजनीतौ एकलक्ष यूनः सम्मेलितुं प्रधानमन्त्रिणः स्वाधीनता दिवसस्य आह्वानस्य अनुरूपः वर्तते। तेनोक्तं यत् युवभिः सह संवादस्य अनन्तरं सर्वकारेण विविध सामाजिक सेवा कार्यक्रमाः आयोजयिष्यन्ते। सर्वकारः युवभ्यः राष्ट्रियम् अन्ताराष्ट्रियं च मञ्चं प्रदास्यति। भारतीय जनता पार्टीति दलेन दिल्ली विधानसभा निर्वाचनार्थं प्रत्याशिनाम् अपरा सूची प्रकाशितास्ति। अत्र आहत्य ऊनत्रिंशत् प्रत्याशिनः सन्ति। इतः पूर्वं दलेन प्रथमसूच्यां ऊनत्रिंशत् प्रत्याशिनां नामानि घोषितानि आसन्। सिंगापुरस्य राष्ट्रपतिः थर्मन् षण्मुगरत्नम् जनवरी मासस्य चतुर्दशतः अष्टादश दिनांकपर्यन्तं भारतस्य यात्रायां भविष्यति। दशसु वर्षेषु कस्यापि सिंगापुर राष्ट्रपतेः भारतस्य एषा प्रथमा आधिकारिकी यात्रा भविष्यति। षण्मुगरत्नम् इत्यस्य यात्राया सममेव भारत सिंगापुरयोः कूटनीतिक सम्बन्धानां षष्टि वर्षाणि अपि पूरितानि भविष्यन्ति। यात्रावधौ सः राष्ट्रपतिना द्रौपदी मुर्मुना प्रधानमन्त्रिणा नरेन्द्र मोदिना च सह मेलनं करिष्यति। सघन कुज्झटिका कारणात् उत्तर पश्चिम भारते आगामि दिनद्वयं यावत् विद्युत् गर्जनेन सह वृष्टेः सम्भावना अपि विद्यते। ऋतुविभागेन पश्चिम विक्षोभ कारणात् अद्य पर्यन्तम् उत्तर पश्चिम भारतस्य केषुचित् भागेषु वृष्टि हिमपातयोः सम्भावनायाः पूर्वानुमानः कृतः। आकाशवाण्या सह वार्तालापे ऋतुविभागस्य डॉ सोमासेनः उक्तवती यत् उत्तरीय क्षेत्रेषु अस्य मासस्य चतुर्दश दिनांकपर्यन्तं प्रातः रात्रौ च सघन कुज्झटिकायाः स्थितिः भवितुम् अर्हति। उपहिमालयीय पश्चिमबंगे सिक्किमे बिहारे ओडिशायां पूर्वोत्तरीये दिग्विभागे च अद्य पर्यन्तम् एतादृश्यः एव परिस्थितयः भविष्यन्ति इति सम्भावना अस्ति। राष्ट्रिय राजधान्यां सघन कुज्झटिकायाः स्थितिम् अवलोक्य पीतवर्णीय सञ्चेतना अपि प्रसारिता अस्ति। दिल्ली विधानसभा निर्वाचनात् प्राक् आम आदमी पार्टीति दलस्य भाजपेति दलस्य च मध्ये आरोप प्रत्यारोप प्रकरणं सञ्जायते। भाजपादलेन आम आदमी पार्टीति दलस्य नेतृत्वयुतस्य दिल्ली सर्वकारस्य कथित भ्रष्टाचार विषयकं गीतं प्रसारितम्। राजधान्यां नवदिल्ल्यां वार्ताहर सम्मेलने प्रदेश भाजपाध्यक्षः वीरेन्द्र सचदेवा अधिक्षिपत् यत् पूर्व मुख्यमन्त्रिणा अरविन्द केजरीवालेन न केवलं दिल्लीवासिभ्यः मिथ्यालापः कृतः अपितु नागरिकाणाम् अहितम् अपि कृतम्। मलेशिया ओपन बैडमिंटन प्रतिस्पर्धायां ह्यः पुरुषो युगल वर्गे उपान्त्यचक्रे दक्षिण कोरिया क्रीडक युगलेन भारतस्य क्रीडक युगलं पराजितम् इति वार्ताः।